सर्वेषां स्वागतम्। अध्ययमन्त्रं कः अथवा का वक्तुमिच्छति?
आं वदामि।
वदतु महोदय, धन्यवादः।
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानामृतं मन्ये, वन्दे संस्कृतमातरम्। हिन्दुधर्मसमाजं च पवित्रां संस्कृतं यथा, संरक्ष ननु कुर्यां कान्तिसमन्वितं।
सो ऐ रीड् द लास्ट् टु, देर् वास् लाट् आफ़् डिस्टर्बेन्स्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्। हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा, संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम्। ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। अस्तु, गृहपाठरूपेण वयं कीदृश अथ अपि च कर्तकाः अपेक्षया इति द्वयम् अस्ति, पत्रद्वयम् अस्ति। प्रश्नाः सन्ति वा कीदृश ईदृश तादृशविषये? अहं सर्वान् म्यूट् करोमि। यः अथवा या वक्तुम् इच्छति अन्म्यूट् करोतु।
भगवती, इस् दिस् होम्वर्क् इन् अभ्यासपुस्तकं?
न,
इस् दिस् फ्रोम् योर् हेण्ड् औट्?
अस्तु, ऐ मीन् अभ्यासपुस्तके अपि अस्ति, अत्र गच्छामः अभ्यासपुस्तके।
भगिनि नमस्कार, परमेश्वरन् जी।
परमेश्वर महोदय, स्वागतम्।
थैंक यू।
अस्तु, सो अत्र अभ्यासपुस्तके समस्तपदम् इव अस्ति खलु, ईदृशपाञ्चालिका, ईदृशपाञ्चालिकाम्, ईदृशपाञ्चालिकायाः इत्यादय तादृशपाञ्चालिकायाः इति अस्ति। परन्तु वयं किं वदामि, सो रूपम् एतदेव अस्ति, ईदृशी घटी, ईका स्त्रीलिङ्गे ईदृशी घटि। म्यूट् मध्ये गच्छन्तु सर्वे कृपया। अस्तु, ईदृशः स्यूतः, पुल्लिङ्गे ईदृशः स्यूतः, ईदृशी घटी, ईदृशं पुस्तकम्। उदाहरणार्थं पुस्तकस्य नाम किम्, पुस्तकस्य नाम किम् इति अस्ति चेत् ईदृशस्य पुस्तकस्य नाम किम्। ईदृश इति पदम् अपि षष्टिरूपे एव भवितव्यम्। घटी
भगिनी, परन्तु उपरि उदाहरणे
तावत् नास्ति, तावत् नास्ति उदाहरणे, अत्र एकपदे एव लिखितम्, एकमेव पदम्।
सन्धि अभवत्,
सन्धि न, समास,
समास, समास अभवत्,
समास। उदाहरणार्थं किं वदामि, साधारणतया रामस्य दूतः इति वदामः खलु, आञ्जनेयः, रामस्य दूतः आञ्जनेयः, केवलं रामदूतः आञ्जनेय इति अपि अस्ति, रामदूतः हनुमान् इति। रामदूतः रामस्य दूतः हनुमान् इति रामदूतः हनुमान् यत्र वयं पदद्वयं योजयामः तस्य नाम अस्ति समस्तपदम् अथवा समास अत्र समासरूपेण एव सर्वत्र अस्ति कीदृश ईदृश तादृश इत्यादि परन्तु सम्यक्तया लेखनीयं चेत् पृथक् पृथक् लेखनीयम् ईदृशः स्यूतः ईदृशं स्यूतम् आवश्यकं तादृशः स्यूतः अत्र अस्ति तादृशः स्यूतः तत्र अस्ति परन्तु तादृशं स्यूतम् आवश्यकम् सो इट् शुड् बी लैक् दट् प्रश्नाः सन्ति वा दिस् आर् दट् अण्ड् आल्सो डिपेण्डिङ्ग् आन् द लिङ्ग लिङ्ग वचन अण्ड् विभक्ति सत्यम् ई इत्युक्ते पार्श्वे अस्ति ता इत्युक्ते दूरे अस्ति की इत्युक्ते प्रश्नवाचकम् उत्तमप्रश्नः अन्यप्रश्नः अस्ति वा
अतः स्यूतः इति वदामि वा
पुनः वदतु भगिनि
भवतः गृहे ईदृशस्यूतः अस्ति वा इति वदामः वा
ईदृशः स्यूतः अस्ति वा उत्तमम् आम्
ईदृशस्यूतः इति वदामः
ईदृशः स्यूतः अस्ति वा
परन्तु किमर्थं तत्र विसर्गः नास्ति
तथा एव अहम् उक्तवती अत्र समस्तपदम् इति वदामः खलु समस्तपदम् इत्युक्ते यत्र वयं पदद्वयं योजयामः तस्य नाम अस्ति समस्तपदम् सो समस्तपदे पूर्वपदस्य अन्यविषया सर्वं त्यक्तनीयं सर्वं त्यक्त्वा एव वक्तव्यम् उदाहरणार्थं अत्र तादृशपाञ्चालिकायाः इति एकपदम् एव अस्ति परन्तु वयं पदद्वयं करणीयं चेत् तादृश्याः इति एव लेखनीयं तादृश इति मूलरूपं मूलपदम् अस्ति तादृश ईदृश कीदृश इति सो अत्र समस्तपदं लेखनीयं चेत् मूलरूपमेव तिष्ठति लिङ्गं गच्छति वचनं गच्छति विभक्ति अपि गच्छति केवलं मूलरूपमेव तिष्ठति
अवगतं भगिनि धन्यवादः
अस्तु सीतारामकल्याणम् इति वयं वदामः सीतारामकल्याणं गौरी
राधाकल्याणं
राधाकल्याणं राधायाः सीता च कल्याणं तत्र न वदामः राधाकल्याणं राधाकृष्णकल्याणम् अन्यप्रश्नः अस्ति वा ऐ थिङ्क् सम्बडि एल्स् स्टार्टेड् टु आस्क् अ क्वश्चन् न ओके अहं सर्वान् म्यूट् करोमि ओके अस्तु उमाकृष्णन् अस्ति
नमस्कार भगिनि
नमस्कारः महोदय भगिनि परमेश्वर परमेश्वरमहोदय अस्ति अस्तु
अहं नारायणमूर्ति अस्मि
नारायणमूर्ति अपि वा भवत्याः उमारेड्डि भगिनि नाम
नमस्कारः भगिनि सौन्द्रम्
सौन्द्रमपि वा अस्तु सौन्द्रं स्वागतं भगिनि
नमस्कारः भगिनि रम्या
ओ रम्या अपि
किमर्थं नाम न दृश्यते अत्र? इदानीम् अस्ति. अस्तु
अस्तु, वयम् अभ्यासं कुर्मः. अस्तु, उदाहरणानि दृष्ट्वा पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गपद. अस्तु, भवतः गृहे दिस् टैप् आफ् बेग् का आरम्भं करोति? सविता भगिनी आरम्भं करोति वा? ओ सोरि, उषा भगिनी, ऐ एम् लुकिङ्ग् एट् राङ्ग् क्लास्.
Yes, Bhagini, you want me to do that one?
I'm Bhagini.
Oh, okay. Yeah, this is the first time I'm looking at it.
Astu tarhi, Gopika Bhagini.
I'm Bhagini. Bhavatah grihe idrishah syutah asti va.
Uttamam. Bhavati, kimartam idrishah iti uttavati?
पुल्लिङ्गः अतः ईदृश.
दिस् इत्युक्ते पार्श्वे अस्ति, इ इति अस्ति, इ इति आगच्छति. ईदृशः इत्युक्ते पार्श्वे अस्ति. अस्तु, अग्रिममपि पठतु भगिनि.
मम गृहे तादृशः स्यूतः अस्ति.
तादृशः स्यूतः अस्ति, ईदृशः तादृशः. उत्तमं भगिनि, अग्रिममपि पठति वा?
अस्तु भगिनि. किमर्थं पृच्छति? तादृशः स्यूतः इच्छति वा?
अस्तु, उत्तमं. परन्तु अत्र इच्छति वा इति अस्ति चेत्
तादृशं स्यूतम् अस्ति.
उत्तमं, तादृशं न, उत्तमं, तादृशं स्यूतम् इच्छति वा? किमर्थं भवती तादृशम् इति उक्तवती?
कम् इति प्रश्नः आगच्छति चेत् वाक्यं पूर्णः भवति.
कम् अथवा किं? किम् इच्छति? किम् इच्छति? स्यूतम् इच्छति. सो अत्र किम् इच्छति, स्यूतम् इच्छति, अतः द्वितीया विभक्ति, विभक्तिरूपम् स्यूतः प्रथमा विभक्ति, स्यूतं द्वितीया विभक्ति. उत्तमम्. केतकी भगिनि.
आं भगिनि, आम् ईदृशं स्यूतम् इच्छामि.
उत्तमम्, ईदृशं स्यूतम् इच्छामि.
बिकास् आफ् इच्छामि.
उत्तमं भगिनि, बिकास् आफ् इच्छामि. उत्तमं, देन् इट् बिकम् द्वितीया विभक्ति. उत्तमम्
भगिनी,
वदतु
भगिनी. ऐ डोण्ट् नो दिस्, सो नौ यु एक्स्प्लेन् देट् देन् ऐ अण्डर्स्टाण्ड्
देट्. उत्तमं भगिनी, धन्यवादः.
तादृशं स्यूतस्य मूल्यं दशरूप्यकाणि अस्ति एव.
अस्तु, दट् इस् द नेक्स्ट् वन् खलु. सो अत्र किं भवति? अस्तु, बीना भगिनि, बीना भगिनि अग्रे गच्छतु. धन्यवादः केतकी भगिनि,
धन्यवादः. सोरि, विच् वन् आर् वी डूइङ्ग्?
दिस् वन्, दिस् टैप्स् मूल्यम्.
ओके, ईदृशस्य स्यूतस्य मूल्यं कति?
किं किम् एव, किं
किम्.
So, Bhagini, if you use kati, you say kati rupyakani. That's all.
Okay.
So, you can either say kim or kati rupyakani or kati dollarani, something. Uttama. Idrishasya syutasya mulyam kati rupyakani atava mulyam kim. Uttama. Astu. Bhavatyeva karotu anyapi.
ईदृशस्य स्यूतस्य मूल्यं
केतकी भगिनी उक्तवती दशरूप्यकाणि इति.
दशरूप्यकाणि.
उत्तमं, धन्यवादः. अस्तु, महेश महोदय.
आं भगिनि, भवत्याः स्यूते ईदृशी लेखनी अस्ति वा?
उत्तमम्, ईदृशी लेखनी. किमर्थम् ईदृशी उक्तवती? अमे उक्तवान् भवान् ईदृशी?
ईदृशी लेखनी विशेषणविशेषभाव अस्ति.
उत्तमं, लेखनी स्त्रीलिङ्ग
उत्तमं. दीर्घ ईकारान्त स्त्रीलिङ्ग एक प्रथमविभक्ति अस्ति. ईदृशी ईकारान्त दीर्घ ईकारान्त प्रथमविभक्तिरूप एव स्वीकरोति.
उत्तम उत्तमं महोदय, स्पष्टम् अस्तु. ईदृशी लेखनी अस्ति वा? उत्तमम् अस्तु. भवान् एव करोतु अग्रिमम् अग्रिममपि.
मम स्यूते तादृशी लेखनी अस्ति.
तादृशी लेखनी अस्ति. अस्ति इति पदम् आगच्छति चेत् प्रथमाविभक्ति
अकर्मकक्रियापदम्.
एवं वा? अकर्मक वा? आम् अस्तु. उत्तम अस्तु. वदतु. ईदृशस्य स्यूतस्य मूल्यम् अधिकम्. अस्तु. आमाम्.
भगिनी, लाट् आफ् डिस्टर्बेन्स्, आडियो इस् वेरि बेड्.
I'll try to mute everybody, so everybody is muted, Mahodaya. Everybody is muted. Astu, Srinivas Mahodaya. Kimartam Pritchati.
Kimartam Pritchati. तादृशं लेखनीम् इच्छति वा?
तादृशं वा पुनः? तादृशीं लेखनीम् इच्छति वा? उत्तमं.
तादृशीं लेखनीम् इच्छति
वा? तादृशीं लेखनीम् इच्छति वा? अस्तु, अग्रिममपि पठतु.
आम् ईदृशीं लेखनीम् इच्छामि.
उत्तमम् अस्तु. अन्य कोऽपि? ज्योति भगिनी.
From where bhagini?
This type of pens varnah.
Idrishi, idrishi lekhani moolyam kim?
Moolyam na atra varnah iti asti.
Okay. Varna bhagini. Where is it bhagini? Here only, right?
Here, like I'll try to highlight.
Okay. Idrishin lekhanim varnaha varnaha kim
varnaha itikte color. So varnaha kaha iti prashna. Varnaha kaha moolyam napumsakalinga padam ataha kim iti agachati. Varnaha pullinga kaha.
Okay.
Bhagini, punah vadatu this type of pens.
Okay. Idrushim lekhan, idrushya lekhanya.
Uttama. Punah vadatu idrish.
Idrushi, idrushyah lekhanyah varnah kah.
Uttamam. Idrushyah lekhanyah varnah kah. Uttamam. Uttamam, Bhagini.
Bhagini, can we say idrusha lekhanyah?
If you're going to make it one word, you can say bhagini. Okay. If you make it one word, ekam eva padena likati chet idrisha lekanyah iti likatu, no chet idrishyah lekanyah varnah kah.
Astu bhagini.
Astu. Agrimam api.
Okay, bhagini. तादृश्याः लेखन्याः वर्णः कृष्णः.
उत्तमं. सर्वे अवगच्छन्ति वा? धन्यवादः भगिनी. अवगच्छन्ति वा सर्वे? ओके अस्तु.
आं भगि.
आम् उमा कृष्णन् भगिनि.
आम् भवतः कपाटिका, ऐ एम् नाट् श्योर् अबौट् दिस्, कपाटिकायाम् ईदृशी शाटिका अस्ति वा?
उत्तमम्. ईदृशी शाटिका अस्ति वा? शाटिका भगिनि वदतु.
कपाटिका वाट् विभक्ति?
दट् इस् सप्तमी भगिनि.
ओके
सप्तमी. भवत्य कपाटिका, यु नो,
भवतः कपाटिकायाम् ईदृशी शाटिका अस्ति वा? सो अत्र आकारान्तस्त्रीलिङ्गपदे अपि ईदृशी एव. उत्तमं भगिनि. अन्य अग्रिमवाक्यमपि पठतु.
मम कपाटिकायां तादृशी शाटिका अस्ति.
उत्तमं. तादृशी शाटिका अस्ति. उत्तमम्. अस्तु अग्रे परमेश्वर् महोदय.
किमर्थं पूच्छति तादृशं सारी इच्छति वा?
पुनः वदतु महोदय.
किमर्थं पृच्छति तादृशी साड्या इच्छति वा?
सो अत्र तादृशी शाटिका इति उक्तवती उमाकृष्णन् भगिनी. तत्तु प्रथमा विभक्ति. इच्छति इति अस्ति चेत् शाटिका बिकम्स् दि आब्जेक्ट् खलु, बिकम्स् द कर्मपदम्.
ओके
सो अतः मकारः लेखनीयः अन्ते. पुनः वदतु.
किमर्थं पृच्छति तादृशं शाटिकायां? तादृशी शाटिकाम् इच्छति वा?
उत्तमं. तादृशीं शाटिकाम् इच्छति वा? उत्तमं. सो अत्र तादृशी शाटिका इति प्रथमा विभक्ति, इत्युक्ते कर्ता रूपं. सो अत्र तादृशीं शाटिकां कर्मपदम्. सो अत्र वाट् इस् द डिफ्रेन्स् बिट्वीन् कर्ता अण्ड् कर्तृपदम् अण्ड् कर्मपदम्?
कर्मपदम् इस् वर्ब्, कर्तृपदम् इस्
न कर्तृपदम् इस् द सब्जेक्ट्.
सब्जेक्ट् कर्मपदम् इस्
आब्जेक्ट्.
ओके ओके.
आब्जेक्ट् क्रियापदम् इस् द वर्ब्. क्रियापदम् इस् द वर्ब्. सो अत्र किम् इच्छति इति प्रश्नः अस्ति खलु. किम् इच्छति? शाटिकाम् इच्छति.
शाटिकाम् इच्छति.
शाटिकायाम् इत्युक्ते आन् द सारि. शाटिकायां
किम् अस्ति? शाटिकाम् इच्छति.
शाटिकाम् इच्छति. अस्तु अग्रिममपि पठतु. मास्तु
मास्तु ईदृश शाडियां न इच्छामि.
ईदृशीं
ईदृशीं शाटिकां न इच्छामि.
ईदृशीं शाटिकां न इच्छामि. अस्तु अग्रे नारायणमूर्तिमहोदय.
तादृशीं शाटिकां
महोदय. यु गाट् इट्? ओके अस्तु वदतु नारायणमहोदय वदतु.
तादृशीं शाटिकां वर्णः कः?
सो अत्र शाटिकास् सारीस्
शाटिकायां
शाटिकायां लेख्य कपाटिकायां खलु. कपाटिकायां मीन्स् इन् द कबर्ड्. कपाटिकायां. सो वि केनाट् यूस् शाटिकायां. शाटिकायां मीन्स् इन् आर् आन् द सारी.
तादृश शाटिकस्य वर्णः शाटिकस्य वर्णः कः?
सो शाटिकस्य इस् फार् पुल्लिङ्ग आर् नपुंसकलिङ्ग. सो सो महोदय अत्र इट् वास् तादृश्याः लेखन्याः वर्णः कृष्णः लेखन्याः तादृश्या याः इस् द मोडिफयर् सो फार् फार् ईच् विभक्ति एण्ड् फार् फार् लिङ्गं वि हेव् सर्टन् मोडिफयर्स् टु शो द डिफ्रेन्स् खलु सो अत्र so this type so it becomes e idrishyah
idrishyah
shatikayah varnah what is the question here
what is the color of
so she, yeah no it's not a sari but here it is varnah so will it be kah ka or kim so it will be will it be kah or ka or kim atra varnah
varnah kah only no
kah uttama uttama idrishya shatikayah varnah kah okay
idrishyah varnayah
varnah kah varnayah na varnah kah idrishya shatikayah varnah kah
varnah shatikayah varnah kah
वर्णः कः सो वाट् विल् बि दि आन्सर् हियर् उत्तरं किम् अत्र
तादृश्याः शाटिकाः वर्णः कृष्णः
कृष्णः अस्तु तादृश्याः शाटिकायाः वर्णः कृष्णः अथवा रक्तः अथवा नीलः नीलः केसरः इत्यादि अस्तु उमारेड्डि भगिनि उमारेड्डि भगिनि
यस् भगिनि आं भगिनि
वदतु
ईदृशाः
सो अत्र वेन् यु से पिक्चर् इट् इस् चित्रं प्रदर्शिनी इन्द प्रदर्शिनी हौ विल् यु से
प्रदर्शिनीं
प्रदर्शिनीं मीन्स् प्रदर्शिनीं पश्यामि प्रदर्शिनीं गच्छामि हौ डिड् वि से कपाटिका भवतः कपाटिकायां भवतः कपाटिकायाम् ईदृशी शाटिका अस्ति वा सो द सेम् पेटर्न् कम्स् हियर्
भवतः प्रदर्शिनी
भवतः मास्तु
भवतः प्रदर्शिन्यां
प्रदर्शिन्यां
ईदृशं चित्रम् अस्ति वा
उत्तमम् ईदृशं चित्रम् अस्ति वा उत्तमं प्रदर्शिन्या ईदृशं चित्रं किमर्थम् ईदृशम् प्रथम एव किमर्थम् इत्युक्ते चित्रम् इति नपुंसकलिङ्गपदं चित्रम्
ईदृशम्
ईदृशम् ईदृशां ईदृशं चित्रं
चित्रं
अतः ईदृश अपि ईदृशं भवति ईदृशं चित्रम् अस्ति वा अस्ति वा
प्रदर्शिन्यां प्रदर्शि मेडं प्रदर्शिनां
प्रदर्शिन्यां प्रदर्शिन्यां
प्रदर्शिन्याम् ईदृशं चित्रम् अस्ति वा
अस्ति वा उत्तमम् प्रदर्शिनी इस् एन् एक्सिबिशन् एक्सिबिशन् अस्तु धन्यवादः भगिनि सौन्दरं भगिनि सौन्दरं भगिनि अस्ति वा अस्तु वदतु
किमर्थं पृच्छति
न अत्रापि प्रदर्शिनी
प्रदर्शिन्यां तादृशं चित्रम् अस्ति.
उत्तमं भगिनि, धन्यवादः. तादृशम् अस्ति. अस्तु, एतदपि पठतु. किमर्थं
किमर्थं पृच्छति, किमर्थं पृच्छति, तादृशं चित्रम् इच्छति वा?
तादृशं चित्रम् इच्छति वा? सो अत्र प्रथमा विभक्तिया द्वितीया विभक्ति वा भगिनि?
द्वितीयविभक्ति.
सो द्वितीयविभक्ति अपि द्वितीया विभक्ति अपि समानरूपं वा?
समानरूपम् एव.
उत्तमं, समानरूपं. किमर्थम् इत्युक्ते
द्वितीयविभक्ति चित्रं प्रथमविभक्ति चित्रं किं पश्यति, किम् इच्छति, चित्रम् इच्छति.
उत्तमं भगिनि, धन्यवादः, बहु धन्यवादः. अस्तु, रम्या भगिनि.
आम्,
तादृशं
चित्रम् इच्छामि.
उत्तमं, तादृशं चित्रम् इच्छामि. अग्रिमवाक्यं.
तादृशं चित्रं चित्रस्य चित्रकारः कः?
चित्रकारः कः? भवती चित्रस्य इति उक्तवती, सम्यक्. परन्तु तादृश अपि कथं भवति? चित्रकारः कः? उत्तमं, तादृशस्य चित्रस्य चित्रकारः कः? उत्तमम्, उत्तमं भगिनि, धन्यवादः. शारदा भगिनि, अन्तिम प्रश्नः वा पृच्छतु.
हियर् द्वितीयविभक्ति अण्ड् यूसेज् अण्ड् प्रथमाविभक्ति यूसेज् स्टिल् ऐ एम् नाट् क्लियर् भगिनि.
या इट् इस् हार्ड् भगिनि, द द्वितीया विभक्ति. बट् अत्र प्रश्नं पृष्ट्वा वयम् अवगन्तुं शक्नुमः. सो अत्र अस्ति इति क्रियापदम् अस्ति. किम् अस्ति? चित्रम् अस्ति. सो अतः चित्रं प्रथमा विभक्ति. सो अत्र किम् अस्ति, चित्रम् अस्ति. सो वाक्यम् अस्ति, चित्रम् अस्ति. चित्रम् इति सब्जेक्ट्, कर्ता. चित्रं कर्तृपदम्, अस्ति क्रियापदम्. अस्तु वा? अग्रिमवाक्यं पश्यामः. इच्छति, किमर्थं पृच्छति? अत्र इच्छति वा इति प्रश्नः अस्ति चेत् सब्जेक्ट् कः, कर्ता कः? हूम् आर् वि आस्किङ्ग्? भवति आर् भवान्? खलु भवति, भवती इच्छति वा इति. सो अत्र कः इच्छति? भवती इच्छति. सो अत्र भवती इस् नाट् गिवेन्, बट् भवती आर् भवान् इस् द सब्जेक्ट्. भवती किम् इच्छति? सो द सब्जेक्ट् इस् आल्रेडि देर् भगिनि, सब्जेक्ट् इस् देर्. सो भवती किम् इच्छति?
चित्रं,
चित्रम् इच्छति. सो अत्र चित्रं बिकम्स् द द्वितीया विभक्ति कर्मपदम्. अस्तु, अन्य उदाहरणं वदामि. पश्यति, कः पश्यति? बालकः पश्यति. अस्तु अस्तु, भवती पश्यति. भवती किं पश्यति?
चित्रं,
चित्रं पश्यति. सो अत्र चित्रं द्वितीया विभक्ति, चित्रम् अस्ति. किम् अस्ति? चित्रम् अस्ति. अत्र चित्रं प्रथमा विभक्ति, भवती चित्रं पश्यति, चित्रं द्वितीया विभक्ति, एवम् एवमेव इच्छति, पश्यति, स्वीकरोति, ददाति इत्यादि इत्यादीनि क्रियापदानि सन्ति चेत् सकर्मक इति वदामः. सकर्मक मीन्स् देर् विल् बि अ कर्मपदम्, ऐ मीन् देर् कुड् बि अ कर्मपदम्. यथा महेश महोदय उक्तवान् अस्ति इति क्रियापदस्य कर्मपदं नास्ति, अकर्मक धातु. ओके, इट् केनाट् हेव् हेव् अ क्रियापदम्. अस्तु अस्तु, शारदा भगिनी. शारदा भगिनी अस्ति वा? अस्तु, अन्तिमवाक्यं का वक्तुमिच्छति?
तादृशस्य चित्रस्य चित्रकारः अहं नास्ति,
न अहं, न अहम् अथवा अहं न, अथवा अहं नास्मि किमपि. अस्तु,
उत्तमं.
अहम् इस् पर्फेक्ट्, न अहं, न अहं. उत्तमम् उत्तमं, न अहं, न अहम्, अहं न, अहं नास्मि इत्यादि एनिथिङ्ग्. अहं नास्मि. अस्तु, प्रश्नः न मे, न मे, न अहम्, अहं न अथवा न अहम्. पृच्छतु. ओके, ऐ विल् गिव् मोर् फार् कीदृश ईदृश.
ओके,
एवं वा? अस्तु अस्तु भगिनि, अस्तु, प्रयत्नं करोमि. अस्तु, अग्रे गच्छामः. आपोसिट्स्, विरुद्धार्थकाः. ललिता इस् शार्ट्. ओ, ऐ गेव् द राङ्ग् वन्. ओके, एकनिमिषम्. सो ऐ डिड् नाट् सेण्ड् दिस् टु यु, खलु? It must be a different one.
Yes, ek aasti
nidanim nasti. Lalita is short and thin.
Not old. I removed the old. Wait. I look for it, Mahodi. Ek anish. I hope I find it. Let's see.
अहं शेर् करोमि वा?
मां प्रेषयति वा? वाट्सप् मध्ये प्रेषयतु.
आं भगिनि,
प्रेषयति. भगिनि,
आं
भगिनि प्रेषयति, भगिनि प्रेषयति,
परन्तु वाट्सप् मध्ये न प्रेषितवती खलु अहम्.
ईमेल् मे अस्ति.
या, ऐ हाव् टु गो टु ईमेल् भगिनि. सो इफ् यु हेव् इट् आन्, इफ् यु हेव् हेण्डी, ऐ विल् शेर् इट्. ओके,
I don't know.
ऐ गाट् इट् अस्तु महेश् महोदय अस्ति अस्ति अत्र अस्तु ललिता इस् शार्ट् एण्ड् थिन् उषा भगिनी अस्तु अग्रे अग्रे गच्छामः समयः तावत् नास्ति केतकी भगिनी ललिता इस् शार्ट् एण्ड् थिन्
ललिता कृशः आणि वामन
वामना इस् कृशा वामना च कृशा
कृशा वामना
कृशा वामना अस्तु उत्तमं बीना भगिनी सुधा
भगिनी शार्ट् एण्ड् थिन्
शार्ट् इस् वामना
Yeah, but where are the words? I mean, should we know it automatically?
It is in the Abhyasa Pustakam, Bhagini.
Oh, okay.
Vamana Krisha iti. Astu. Usha Bhagini, Kalu, Usha Bhagini. Tall is Unnata, fat is, how do you say fat? Stula.
Stula.
सुधाकरः सि अत्र उन्नत इस् द मूलरूपम् उन्नत बिकास् इट् इस् सुधाकर द इट् विल् चेञ्ज् टु वाट् नौ उन्नतः
यस् भगिनि
ओके एण्ड् फेट् इस् स्थूल स्थूल स्थूलः If it is Sudhakar, it is Stulaha. If it is Lalita, it is?
Stulaki.
Stula.
Stula.
Stula. Stula. Krisha, Stula, Vamana, Unnata. If it is Sudhakar, it is Aha, Aha, everything Aha. Vamana, Stulaha, Krisha, Unnata.
Bhagini. Bhagini, it is on a 65 page.
There you go. Usha Bhagini.
Bhagini, is it going to be Sudhakaraha or just Sudhakar?
Sudhakaraha.
Sudhakaraha, Unnataha, Cha, Stulaha, Asti.
So the Cha goes in the end, Kalo. Unnataha?
Unnataha, Stulaha, Cha, Asti.
स्थूलः च यु केन् जस्ट् स्टाप् वित् स्थूलः आल्सो स्थूलः उन्नतः स्थूलः च वि डोण्ट् हाव् टु से अस्ति बट् इट्स् नाट् राङ्ग् अस्ति अस्ति चेत् उत्तमं नो चेत् अपि उत्तममेव अस्तु बीना भगिनि
ललितायाः अपेक्षया सुधाकरः उन्नतः स्थूलः च अस्ति
उन्नतः स्थूलः च अस्ति उत्तमं भगिनि गोपिका भगिनि स्वागतम्
सुधाकरस्य अपेक्षया ललिता कृशा अस्ति
कृशा अपि च
कृशा
वामन्
एकनिमिषं
वामन्
वामना वामना
वामना च उत्तमं
वामना वृद्धा अस्ति
वामना च
वामना कृशा वृद्धा अस्ति
वृद्धा अपि वा ऐ डिन्ट् पुट् वृद्धा बट् वृद्धा अस्तु
नो त्री ब्लाङ्क्स् अतः
सो ऐ जस्ट् पुट् च फार् च च अस्तु महेश महोदय
आं भगिनि पुरातनं युतकं पुरातनः कंसः पुरातनी स्थालिका पुरातनी द्रोणी च क्षिपन्तु
उत्तमम्
आं भगिनि
डिड् एवरीवन् गेट् दट् पुरातनं पुरातनः पुरातनी स्त्रीलिङ्गे स्थालिका वदतु Is it?
Necessary to say Puratana for everything separately or is it possible to put one common Puratana somewhere?
No, we are doing exercise, Kalu Mahodaya.
No, in the normal way it is possible. It should be possible. I'm just thinking, I'm not...
So, because we have different linga,
okay.
It is hard. Like, unless we put like पुरातनयुतकं चषकः स्थालिका द्रोणी च सो इफ् यु गोण् पुट् इट् इन् वन् वर्ड् यु केन् से पुरातनयुतकम् अथवा यु हाव् टु सेपरेट् इट्
So we can put the Puratani?
Puratani, Stalika, Akaranta, but still it is Puratani eva.
And Yuktakam and Chashakam is a Pullinga.
Yuktakam is not Pullinga, Napumsakalinga. Yuktakam, Kalo, Yuktakam. Puratanam, yeah. Yuktakam.
So Puratanam or Puratani?
No, Puratanam Yutakam, Puratanaha Chashakaha, Puratani Stalika, Puratani Droni.
Oh, so everything different, not a one sentence.
No. Srinivasa Mahodaya.
Why isn't this Dvitiya Vibhakti? Because we're throwing away.
उत्तमं भगिनि इट् इस् द्वितीया विभक्ति करेक्ट् 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 भगिनि महेश महोदय पुनः वदतु या इट् इस् द्वितीया विभक्ति करेक्ट्
पुनः द्वितीया विभक्ति उपयुज्य वदामि वा
आम् आम् आम्
पुरातनं युतकं पुरातनं चषकं पुरातनं स्थालिकां
पुरातनं
द्रोणीं
महोदय भवान् पुरातनी इति उक्तवान् खलु प्रथमं
पुरातनीं स्थालिकां पुरातनीं द्रोणीं च क्षिपन्तु
क्षिपतु अपि क्षिपतु or chipantu we don't know who it is
bhavan chipantu or chipantu it may be if there are more people there it will be chipantu one person it will be chipatu
dhanyavadah beena bagini I missed that point dhanyavadah astu Srinivas mahodaya
bagini
sa
unnata mahila
अभ्यासपुस्तके अस्ति दीर्घ दीर्घां मापिकाम् अत्रापि द्वितीया विभक्ति और यू केन् से ह्रस्वम्
नूतनं पादत्राणम् आनयति
बिकास् इट् इस् विल्
च आनयति
सो बिकास् इट् इस् विल् इट् इस् भविष्यत् काल सो
आनयति
आनेष्यति उत्तमम् आनेष्यति उत्तमं ज्योति भगिनि
आं भगिनि यः फोर् वेदर् केन् ऐ यूस् वायुगुणः भगिनि और्
वातावरण सो अत्र अत्र इस् नाट् जस्ट् ह्यः इस् नाट् जस्ट् यस्टर्डे
यस्टर्डेस् यस्थन वातावरण अपेक्षया
सो सो वेन् एवर् वि यूस् अपेक्षया इट् हेस् टु गो टु षष्टि विभक्ति
okay. Apekshaya.
Yastana vatavaranasya
apekshaya. Yastana vatavaranasya apekshaya. Adhyatana vatavaranah bahu samyak asti.
Uttama.
अद्यतन वातावरण बहु सम्यक् अस्ति वृष्टिः नास्ति
उत्तमम् अद्यतन वातावरणं पुनः वदामि ह्यस्तन वातावरणस्य अपेक्षया अद्यतन वातावरणं सम्यक् अस्ति वृष्टिः नास्ति उष्णं नास्ति किमपि उष्णं नास्ति अधिकम् उष्णम् अस्तु स्वागतं भगिनि उमाकृष्णन् भगिनि कम्पेर्ड् टु महाभारतम्
महाभारतस्य
अपेक्षया लघुकाव्यम्
अस्ति
महाभारतस्य अपेक्षया रामायणं लघुकाव्यम् उत्तमम् उत्तमं भगिनि परमेश्वर महोदय अस्तु नारायणमहोदय नारायणमूर्तिमहोदय
मम गृहं अपेक्षया
गृहस्य अपेक्षया फार् अपेक्षया यु हाव् टु यूस् एदर् गृहस्य यु हाव् टु यूस् षष्टि विभक्ति
मम गृहस्य अपेक्षया भवान् गृहं
भवत्याः गृहं
भवत्याः गृहं क्लोस्
पार्श्वे अस्ति
पार्श्वे अस्ति
मम गृहस्य अपेक्षया भवत्याः गृहं पार्श्वे अस्ति अथवा समीपे अस्ति अस्तु उत्तमम् उमारेड्डी भगिनी
आं भगिनि
Compared to you.
No.
Compared to you. You means how will you say for you? Shastify. How will you ask somebody what is your name for?
Bhavatasya.
Bhavatasya na. To you, there is a. It's either Bhavat. और भवत्याः फॉर स्त्रीलिंग खलु फॉर पुल्लिंग हाउ विल यू आस्क
भवतः
भवतः
भवतव भवत भवतः
अपेक्षया भवतः अपेक्षया
भवतः अपेक्षया I eat too much. Me?
Aham
kadami.
Aham adikam kadami.
Aham adikam kadami.
Astu, agree. I'm going to the next person, Bhagini. I have only last question. Saundaram, Bhagini.
10th one, madam. 10th one. भवतः अपेक्षया अहम् अधिकं खादामि आम् यतः भवत्याः भवत्याः अपेक्षया अहम् अभ्यासम् अधिकं करोमि.
उत्तमम्. सो इन्स् आफ् अभ्यासं विषये व्यायामम् अधिकं
करोमि.
उत्तमम्. अहं पुनः वदामि, भवतः अपेक्षया अहम् अधिकं खादामि सत्यं, परन्तु भवत्याः अपेक्षया अहम् अधिकं व्यायामं करोमि. अस्तु, सर्वे म्यूट् मध्ये गच्छन्तु, अहम् अभ्यासपुस्तकं प्रति गच्छामि. अस्तु, रम्या भगिनी स्वस्य वाक्यं वदति वा किमपि अपेक्षया उपयुज्य?
सीवकचिन्तामणि अपेक्षया रामायणं बृहत् काव्यम्.
सीमनचिन्तामणि पुस्तकस्य अपेक्षया अथवा काव्यस्य अपेक्षया. अस्तु, उत्तमं भगिनि, धन्यवादः. अस्तु, शारदा भगिनी अस्ति वा? नास्ति इति मन्ये. अस्तु अस्तु, अभ्यासपुस्तकम् ईदृशः अभवत्, अपेक्षया अपि अभवत्. किं तुमुन् ततः विरुद्ध अत्र पश्यामः. अत्र कुटुम्बम् अस्ति, एकं कुटुम्बम् अस्ति, नारायणः लता, पतिः पत्नी. नारायणः गोविन्दस्य गौतम्याः च पुत्रः. गोविन्दः गौतमी पुत्रः. नारायणः कः? नारायणः गोविन्दस्य पुत्रः, गौतम्याः पुत्रः. मिलित्वा गोविन्दस्य गौतम्याः च पुत्रः नारायणः. इदानीं लता. लता नरसिंहस्य पुत्री, गिरिजाम्बायाः पुत्री. मिलित्वा नरसिंहस्य गिरिजाम्बायाः च पुत्री. अस्तु, इदानीं पुत्री पुत्रः अत्र गच्छामः. नारायणः कः? नारायणः केशवस्य जनकः. पिता इति अस्ति, परन्तु वयं जनकः इति वदामः. जनकः केशवस्य जनकः, सुमायाः जनकः. मिलित्वा केशवस्य सुमायाः च नारायणः. पुत्रपौत्र्याः दृष्ट्या वयं जनकः इति वदामः. लता दृष्ट्या पश्यामः. इदानीं सुमायाः अम्बा, माता इति अस्ति, परन्तु अम्बा इति वदामः. सुमायाः अम्बा, केशवस्य अम्बा, सुमायाः केशवस्य च अम्बा का? केशवस्य सुमायाः च अम्बा लता. इदानीं गोविन्दस्य केशवस्य च कः सम्बन्धः इति पश्यामः. पुत्रस्य पुत्रः इति अस्ति चेत् पौत्रः इति वदामः. गोविन्दस्य पुत्रस्य पुत्रः केशवः, अथवा गोविन्दस्य पौत्रः केशवः, पौत्रः. गौतम्याः पौत्रः केशवः. मिलित्वा गोविन्दस्य गौतम्याः च पौत्रः केशवः. केशवः. इदानीं नरसिंहस्य गिरिजाम्बायाः च सुमायाः केशवस्य कः सम्बन्धः इति पश्यामः. नरसिंहस्य पुत्र्याः पुत्रः इति अस्ति चेत् दौहित्रः. पुत्र्याः पुत्रः दौहित्रः पुत्र्याः पुत्री दौहित्री नरसिंहस्य दौहित्रः केशवः गिरिजाम्बायाः दौहित्रः केशवः मिलित्वा नरसिंहस्य षष्टिविभक्ति नरसिंहस्य गिरिजाम्बायाः च दौहित्री सुमा दौहित्रः केशवः अस्तु इदानीं गोविन्दः गौतम्याः दृष्ट्या लतया सह कः सम्बन्धः इति पश्यामः श्वश्रु इति अस्ति एकनिमिषम् अत्र पश्यामः
डिफ्रेन्स् लैक् नानी अण्ड् दादी इन् संस्कृत आल्सो नानी इस्
मदर् दर् इस् अ डिफ्रेन्स् ओके लेट्स् डू देट् नौ इदानीं केशवस्य सुमायाः दृष्ट्या कथं वदामः वयम् इति पश्यामः उदाहरणं केशवस्य जनकः नारायणः केशवस्य जनकस्य जनकः गोविन्दः अतः पिता द्वारा केशवस्य पितुः पिता दट् इस् जनकस्य जनक पितुः पिता फादर्स् फादर् इट् इस् पिता हौ विल् वि से पितामहः और् एण्ड् पितामहः पितामही सुमायाः पितामहः गोविन्दः सुमायाः पितामही गौतमी मिलित्वा केशवस्य सुमायाः च पितामहः गोविन्दः पितामही गौतमी च एवमेव मातुः माता मातुः पिता अथवा अम्बायाः अम्बा अम्बायाः पिता मातामहः मातामहि केशवस्य मातामहः नरसिंहः सुमायाः मातामहः नरसिंहः अतः केशवस्य सुमायाः च मातामहः नरसिंहः मातामही गिरिजाम्बा च अवगतं सो फार् दिस् वे दट् वे आल् डिफ्रेण्ट् डैरेक्षन्स् इदानीं हौ डु वि ऐ जस्ट् वाण्ट् मेक् शोर् ऐ कवर्ड् एव्रिथिङ्ग् दौहित्री दौहित्री पितामहः मातामहः अस्तु पुत्र्याः पतिः जामाता स्नुषा अस्तु पुत्र्याः पतिः पुत्र्याः पतिः नरसिंहस्य जामाता नरसिंहस्य पुत्र्याः पतिः नारायणः खलु नरसिंहस्य जामाता नारायणः गिरिजाम्बायाः जामाता नारायणः मिलित्वा नरसिंहस्य गिरिजाम्बायाः च जामाता नारायणः इदानीं गोविन्दस्य गौतम्याः च दृष्ट्या लतया सह कः सम्बन्धः गोविन्दस्य गौतम्याः च स्नुषा स्नुषा पुत्रस्य पत्नी स्नुषा स्नुषा जामाता स्नुषा जामाता स्नुषा गोविन्दस्य गौतम्याः स्नुषा लता नरसिंहस्य गिरिजाम्बायाः च जामाता नारायणः गोविन्दस्य गौतम्याः च पुत्रः नारायणः पौत्रः पौत्री केशवः सुमा च एकनिमिषम् केशवः सुमा च इदानीं नरसिंहस्य गिरिजाम्बायाः च दृष्ट्या पश्यामः नरसिंहस्य गिरिजाम्बायाः च पुत्री लता नरसिंहस्य गिरिजाम्बायाः च जामाता नारायणः नरसिंहस्य गिरिजाम्बायाः च दौहित्रः दौहित्री केशवः सुमा च इदानीं नारायणस्य लतायाः च दृष्ट्या का वक्तुमिच्छति अथवा कः वक्तुमिच्छति अस्तु अहं पृच्छामि नारायणस्य जनकः कः
गोविन्दः
हा उत्तम नारायणस्य जनकः गोविन्दः गौतम्याः च लतया सह कः सम्बन्धः गौतमी लता
स्नुषा गोविन्दस्य गौतम्याः स्नुषा लता
अस्तु अस्तु श्रीनिवास महोदय भवान् किम् उक्तवान् लता अस्तु इदानीं पश्यामः लतायाः गोविन्दः लतायाः श्वशुरः लतायाः श्वशुरः गोविन्दः लतायाः श्वश्रूः गौतमी अत्र अस्ति श्वशुरः श्वश्रूः लतायाः श्वशुरः गोविन्दः लतायाः श्वश्रूः गौतमी नारायणस्य नरसिंहस्य गिरिजाम्बायाः च कः सम्बन्धः श्वशुरः श्वश्रूः एव नरसिंहः नारायणस्य श्वश्रूः गिरिजाम्बा अवगतम् सम्बन्धम् अवगतं वा अस्तु
I think we have to cover 27.1 ruchi vachaka. Have we covered that?
No, not yet. We'll do it today.
Okay.
We'll do it today. So, atra, there are more sambandhas. Pita, mahaha, dauhitri. So, you can do this exercise. Apicha, we have other sambandha also. Matulaha, matuhu brata. Matuhu means mothers. Mother's brother. మాతులాని దట్ ఈస్ మామా మామి ఇన్ తమిళ్ వి సే మామా మామి మాతులః మాతులాని మదర్స్ బ్రదర్ మదర్స్ బ్రదర్స్ వైఫ్ మాతులస్య పత్ని మాతులాని भगिन्याः पुत्रः विसे भागिनेयः वि हाव् दट् नेफ्यू रैट् नेफ्यू
या या
भगिन्याः भगिन्याः पुत्री नीस् इति वदामः नीस् भागिनेयी अत्र पत्युः भगिनी पत्युः मीन्स् हस्बेण्ड् पतिः पत्युः भगिनी ननान्दा विसे नातनार् रैट् नातनार् ननान्दा पत्युः भगिनी हस्बेण्ड्स् सिस्टर् हस्बेण्ड्स् ब्रदर् पत्युः भ्राता देवरः पत्युः भ्राता देवरः सो आल् दिस् इस् वेरि वेरि काम्प्लिकेटेड् इफ् यु या इफ् यु नो आल्रेडि ग्रेट् इट्स् ओके सो अत्र पितुः भ्राता पितुः मीन्स् फादर्स् फादर्स् ब्रदर्
पितृपा
चित्तप्पा आर् पेरियप्पा बोत् चित्तप्पा आर् पेरियप्पा
English makes life simpler. One uncle covers everything.
Yes.
Uncle cousin covers 80% of our relations.
Haam, haam, haam. Satya. In Tamil we have so many. Oh.
Plenty.
So here it is Chittappa or Periyappa. That is older brother or younger brother. Anujaha atava Anuja. Pituhu Anuja. अथवा ऐ मीन् अनुजः अथवा अग्रजः पितृव्यः एव पितुः भगिनी विषये अत्तै रैट् पितुः भगिनी नो नाट् पितुः भगिनी या इट् इस् अत्तै करेक्ट् पितुः भगिनी अत्तै पितृभगिनी सो यु केन् ट्रान्स्लेट् इट् इन् योर् ओन् लाङ्ग्वेज् इट् बि ईजियर् Pitru Bhagini. Pitru Bhagini also, we don't know, older or younger, just Bhagini. Patnyaha Bhrata. Patni, Patnyaha Bhrata. Wife's brother. Again,
Achha.
Older or younger, Machcha. We don't know, older or younger, we don't know.
Bhagini.
Shyala.
That's what
they call it, Shala. Oh, like Machava, Shala.
That's a curse word in Hindi.
Slang, yeah. So, and then, Patyuhu Brata, Pati, husband's brother, older or younger, Devaraha.
Devaraha.
Bhaginyaha Patihi, Avuttaha, Bhaginyaha Patihi. Sister's husband. Sister's husband in Tamil, for older we have. For younger we don't have. For older we say
Hatimbel.
For younger we don't know.
We don't know.
Ah, by name. Yeah. In the olden days, we have to say Mapla. We can't say by name. Nowadays, Vada Poda. Okay. Wow. Now we look at Vada Poda. So, or at least Va. So, now we look at Ruchi Vachaka.
Current name is Anna Vada.
Oh.
Day
and night. Okay. So now we look at ruchi vachakas, okay? Lavanam. Lavanasya ruchihi lavanah. So the actual ruchi is pullinga. Okay? All the ruchi vachakas are pullinga. Madurah, amlah, katuh, tiktah, kashayah. But the strange thing is, the word ruchi is strilinga.
Strilinga.
It's like when we say nama kim, nama is napumsakalinga. The word nama is napumsakalinga. But the actual nama can be pullinga, strilinga, napumsakalinga. You see the logic there?
Aam bhagini.
So I say, Nama Govindaha. Tasya Nama Sita. Tasya Nama Upanetram. Iti. So the actual word is either Pullinga, Strilinga or Napumsakalinga. It just so happens Ruchi Vachakarsya Nama Pullinga. Lavanaha. Okay. Lavanasya Nama Lavanaha. Jambiram. Jambira Palasya Ruchihi Amlaha. Amlaha itikte kim? Sour.
Jambiram is lemon or
lemon. Okay. Lavanasya ruchihi lavanaha. Lavanaha itikte kim?
Salty.
Interesting. Jambirasya ruchihi amalaha. Again, amalasya ruchihi.
Correct. Amlaha. Chakale atra. So everywhere we use shashti vibhakti. So be very thorough in your shashti vibhakti. Okay. If it is a strilinga pada, marichikasya, that's not siya here. Okay. For strilinga, the modifier is yah. You got to be very careful. Astu. Jambirasya ruchihi amlaha. Chakaleha. Chakalehasya ruchihi madhurah. Marichika yaha ruchihi katuhu. Katuhu tite?
Bitter.
Spicy.
Spicy.
What we say? Yeah. Malai. Karam. Yeah, in Tamil we say karam.
Kashayaha is bitter.
Kashayaha is bitter. Tiktaha is bitter. Karavellasya ruchihi tiktaha.
Bitter.
I get confused
with that. What is karavellasya?
Katuhu tiktaha kashayaha.
Amlasya ruchihi kashayaha.
Kashayaha.
How will you describe the ruchi of kashaya?
Kadu acting very like that. Hey. All bad ruchis together.
Okay, that's a good way to describe. So we have lavanaha, amlaha, madhuraha, katuhu, tiktaha, kashayaha. Lavanaha, salty. Amlaha, sour. Madhuraha, sweet.
Sweet.
Katuhu, spicy.
Hot.
Not spicy, it's like hot. Hot spicy. Tiktaha, bitter. Kashayaha cannot describe that one. Okay.
What is amlakam?
Pungent maybe, I don't know. Pungent.
No, what is that? Amlakam, what is that thing?
Gooseberry. Nellika.
Oh, Nellika. Nellika, what is most in the
Supari.
Gooseberry, I mean, I think I got the explanation from somewhere, like all the leaves which they make kashayam.
Okay.
Vagaru. Bagini? That means Telugu, Vagaru.
Vagaru, Vagaru.
Supari.
Park tour.
The park. Yeah, the park taste, correct. अस्तु अग्रे गच्छामः अत्र गुडस्य रुचिः कटुः सत्यं वा न वा शुद्धम् अशुद्धम् इति एतानि वाक्यानि पठतु अशुद्धानि वाक्यानि शुद्धानि करोतु सो वी हेव् टु फिक्स् इट् शुद्धं करोतु गुडस्य रुचिः कटुः
गुडस्य रुचिः मधुरः
गुडस्य रुचिः मधुरः अस्तु मरीचिकायाः रुचिः मधुरः मरीचिकायाः रुचिः कटुः आम्रफलस्य रुचिः तिक्तः आम्र मीन्स् वाट् आम्र
मेङ्गो
मेङ्गो मेङ्गो आम्रफलस्य रुचिः मधुरः अथवा सम्टैम्स् आम्लः रैट्
आम्लः
परन्तु तिक्तः न अवलेहस्य रुचिः अवलेहम् इत्युक्ते एदर् पिकल् आर् वि आल्सो से लेह्यम्
कटुः
कषायः कषायः
तिक्तः वा अवलेहस्य रुचिः कटुः मधुरः च भगिनि तिक्तः इत्युक्ते बिटर्
एकैक समये
बिटर् अपि बिटर् अपि अस्तु तिक्तः अपि तिन्त्रिण्याः रुचिः तिन्त्रिणी इत्युक्ते पुलि आक्चुवल् पुलि वाट् वि काल् टामरिन् ओके सो एतत् सम्भाषणं पठामः पुत्रः अम्ब किम् अद्य क्वथितं बहु कटु अस्ति क्वथितं मीन्स् साम्बार् अद्य क्वथितं बहु कटु अस्ति सो अत्र इस् नाट् कटुः एनिमोर् बिकास् वि आर् डिस्क्रैबिङ्ग् क्वथितम् ओके सो इट् बिकेम् कटु बिकास् आफ् क्वथितं क्वथितम् इस् नपुंसकलिङ्गं कटु इस् नपुंसकलिङ्गम् इट् चेञ्जस् अद्य क्वथितं बहु कटु अस्ति सो अम्बा इस् टेलिङ्ग् तर्हि क्वथितं मा स्वीकरोतु तक्रं परिवेषयामि तक्रम् इस् बटर् मिल्क् तक्रं बहु आम्लम् अस्ति सो तक्रं नपुंसकलिङ्गपदं सो आम्लः बिकेम् आम्लम् ओके तक्रं बहु आम्लम् अस्ति अम्ब सो अम्बा सरि भवान् तु केवलं मीन्स् ओन्लि मधुरम् एव इच्छति केवलं मधुरम् इच्छति सो इट्स् नाट् मधुरः बट् मधुर
अर्थं किं भगिनि
टु मीन्स् बट् भवान् तु केवलं मधुरम् इच्छति मधुरं खाद्यं संथिङ्ग् लैक् मधुरं खाद्यं मधुरम् इच्छति एतत् मोदकं खादतु धन्यवादः सर्वे म्यूट् मध्ये गच्छन्तु प्रश्नः अस्ति चेत् अन्म्यूट् करोतु नो चेत् म्यूट् कुर्वन्तु धन्यवादः पृच्छतु न केवलम् इस् नाट् भवान् तु केवलं मधुरम् इच्छति मधुरं एकनिमिषं भगिनि शीस् थिङ्किङ्ग् आफ् मधुरं खाद्यं खाद्यम् इत्युक्ते सम् फुड् मधुरम्
No,
no, my question is,
Takram is
Napumsakling.
So,
Amla, yes. Takram is Napumsakling, therefore it is Amla. So, here, So here she is telling Madhuram Kadyam. The Kadyam is not written here, but it is Kadyam.
That's why Madhuram came, right?
Because of Kadyam, it is Madhuram. Not because of Kevalam. Uttama Prashnam Bhagini. Astu. Etat Modakam Kadatu Bahu Madhuram Asti. Here because of Modakam. Madhuram Asti because of Modakam. Satyamamba Etat Madhuram Asti. Karavelasya Vyajanam Asti. Karavelam. What we call
bitter
pavaka, yes. Kinchit parveshayami va mastu amba karavelam tiktam bhavati. So tiktam karavelam tiktam
tiktam
bhavati. Aham tiktam na ichami. Ichami tiktam. Bikim na ichati tiktam. Tiktam na ichami. Kinchit Lavanam Parivesayatu. Lavanam salt. Lavanam Parivesayatu. Svikarotu. Amlakasya Avaleham. Amlakam. What is Amlakam?
Gooseberry.
Amlakasya Avaleham Kinchit Parivesayami va. Astu parivesayatu amba. Amba, amlakasya ruchihi kashayaha asti.
Again, avalekham means pickle.
Here, see, avalekham can be either pickle or what we call lehyam.
Okay.
It's kind, it's like that. Amlakasya ruchihi kashayaha asti. Tarhi jambirasya avaleham svikarotu. So avaleham is a pickle of either this or that or anything else. Astu. Satu amlaha. It is very sour. Amlaha asti amba. Bhavantu madhuram ekam eva ichati. Parantu sharirasya vardhanartam. Sarva vidaha ruchayaha, ruchi bahuvachanam ruchayaha api avashyik avashyikaha. I'm sorry. Avashyikaha eva. So atra ruchihi avashyaki iti asti. So it became avashyikaha. So atra we can answer all these kvatitam. We answer all these questions. Kvatitam katam asti.
Kvatitam bahu katu asti.
Bahu katu asti. Bahu katu asti. Takram katam asti. Takram.
Amlam
asti. Kim tiktam bhavati?
Karavelam
tiktam bhavati. Karavelam vyajanam. Vyanjanam, sorry. Vyanjanam. Karavelasya vyanjanam tiktam bhavati. Vyanjanam itukte vegetable. Vyanjanam. Cooked vegetable we call vyanjanam. Bhavan amlakasya ruchihi ka. Why is it ka?
Ruchihi strilinga.
Ruchihi strilinga padam uttama. Amlakasya ruchihi ka.
Amlaha madura.
Amlakasya ruchihi kashayaha. Okay. Bhavan kim ichati?
Aham madhuram.
Bhavan madhuram eva ichati.
Madhuram eva ichami. Gudasya ruchihi ka?
Madhuram.
Gudasya ruchihi madhuram asti.
रुचिः मधुरः सो सो इट् इस् सेपरेट्लि वि से मधुरः गुडस्य रुचिः मधुरः बट् वि से गुडः मधुरम्
मधुर
अस्तु समयः अभवत् प्रश्नाः सन्ति वा रुचिवाचका अपि च बान्धव ओ अम्बा अस्ति वा कदा आगतवती भवत्याः ध्वनिः एव अहं श्रुतवती स्वागतम् अस्तु प्रश्नाः सन्ति वा
Okay, I think we have covered the whole book instead of 34.1 part of the body.
Part of the body. So I can just send it to you by, I mean, this is nothing to hear, right?
Yeah, repeat it. It's here itself, you know. Bagi sab to khatam cover ho gaya.
Yeah. Astu. Aham preshayami. सो अग्रिम अग्रिमवर्गे पुनस्मारणं कुर्मः सो प्रश्नाः सन्ति चेत् पृच्छन्तु अथवा पुनस्मारणं कुर्मः अस्तु अस्तु विरमामः वा शान्तिमन्त्रं वदामः ॐ सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा
कश्चित् दुःखभाग्
भवेत्
ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्री गुरुभ्यो नमः
हरिः ॐ
धन्यवादः
धन्यवादः भगिनि
धन्यवादः
भगिनि
धन्यवादः
धन्यवादः धन्यवादः